नमस्तेभ्यः सम्पूर्णरामायणस्य बालकाण्डे अद्य द्वादशः पाठः फेब्रुवरी मासस्य ऊनविंशः दिनाङ्कः लक्ष्मीं धनोऽस्मि कदामितरानपेक्षमं हृद्वयं निगमशाखिशिखाप्रवालम् हैरम्बवं बुरुहडं वरचौर्यनिघ्नम् विघ्नात्रिभेदशतधारधुरन्धरम् उच्चैर्गतिर्जगति सिद्ध्यति धर्मतश्चेत् तस्य प्रमाजवचनैः कृतकेतरैश्चेत् तेषाम् प्रकाशनदशा च महीसुरैश्चेत् तानन्तरेण निपतेत् खण्वप्रणामः प्रायः मासस्य विरामः सञ्जातः सर्वरामायणे देवाः हविराहरणाय धरणौ कृतावतरणाः ब्रह्माणं पुरस्कृत्य वैकुण्ठं गत्वा तत्र भगवतः समीपे रावणस्य आटाटोपं वर्णयन्ति अस्ति प्रशस्तविभवैर्विबुधैरलङ्घ्य लङ्केति नाम रजनीतरराजधानी माणिक्यमन्दिरभुवां महतां प्ररोहैः तेजत्रयाय दिनदीपदशां दिशन्ति इति लङ्कायाः वर्णनम् आरब्धम् लङ्का नाम्नी पुरातननगरी विद्यते यस्याः राजा रावणः एनां पुराणनगरीं नगरीति सालां सालाभिरामभुजनिर्दितयक्षराजः हेलाभिभूतजगतां रजनीशराणां राजा किरातवति रावणनामधेयः इति रावणस्य वर्णनम् आरब्धम् यद्बाहुराहुरसनायितशस्त्रधाराः दिक्पालकीर्तिमयसम्भ्रमसङ्ग्रसन्ति यद्वैरिणां रणमुखे शरणप्रदायी नैवास्ति कश्चिदम् मन्तकमन्तरेण यद्बाहुराहुरसनायितशस्त्रधाराः तस्य बाहवः एव राहवः तद्दिह्वाभूताः शस्त्रधाराः यैः सर्वेषाम् दिक्पालानाम् कीर्तिरूपः चन्द्रः गिल्यते इति तस्य तम् कवलीकुर्वन्ति एताः शस्त्रधाराः यः कोऽपि रावणम् रणे योद्धुम् प्रयतते चेत् यमम् विना तस्य शरणम् दातुम् कोऽपि न समर्थः अर्थात् निश्चयेन यमलोकम् प्राप्नोति एवम् स्वीयः पराक्रमः एव महान् आसीत् तेन सह रावणः ब्रह्मणः वरम् अपि प्राप्तवान् अम्भोजसम्भवमुहुम् बहुभिस्तपोभिराराधयन् वरमवापपरैर्दुरापम् तस्मादशेषभुवनम् निदशासनस्य लक्ष्यीकरोति रजनीशरतप्रवृत्ति समग्रम् भुवनम् स्वस्य अज्ञावर्तिनम् कर्तुम् प्रयतते रावणः इति कथम् इन्द्रम् आरभ्य सर्वेऽपि देवाः तस्य भयादेव स्वस्वकार्याणि कर्तुमपि न प्रभवन्ति इति गद्यभागेन वर्णयति भोजः तत्र प्रथमः गद्यभागः दृष्टः स्वयं कदाचित् क्रीडाधराधरमारुह्य सावरोधवधूजनश्चरणाभ्याम् सञ्चरेत चेत् आगमिष्यत्याग इत्यनाविष्टतातपः भगवान् सहस्रभानुरपि सङ्कुचितभानुरेव तत्सानूनि नूनम् संश्रयते रावणः कदाचित् स्वस्य अन्तःपुरस्त्रीभिः सह पद्भ्याम् विहरणार्थम् क्रीडापर्वतम् गच्छति चेत् सूर्यस्य भयमुत्पद्यते आतपः यदि रावणम् पीडयति तर्हि सः क्रुद्धः भवेत् इति भीत्या सूर्यः स्वस्य किरणानाम् सङ्कोचम् कृत्वा स्वयम् पर्वतस्य अधोभागे गत्वा आत्मानम् गोपायितुम् प्रयतते इति सूर्यस्य दशा वर्णिता अग्रे चन्द्रस्य कीदृशी दशा इति वर्णयति एष मृगाङ्कोऽपि मृगयायात परिश्रान्तिविश्रान्त्यै ससम्भ्रमन् नमज्जनपरिदृते मज्जनगृहाभिमुखे दशमुखे तत्रत्य विचित्रतर शापकुम्भ स्तम्भाग्र प्रत्यग्र प्रत्युक्त स्फटिकशिला शालभंजिका पुंज करतलकलित निजोपलमय कलशोखा रक्षाच्छाम अविच्छिन्नधाराम अम्बुधाराम निजतराभिवर्षादापादयम् तस्य प्रसादपिशुनानाम् शुदातीर चिरकाङ्क्षितानाम् विंशति विधविक्षणानाम् क्षणमात्रम् पात्रम् भवति। रावणम् प्रसादयितुम् चन्द्रस्य कीदृशः प्रयत्नः इति अत्र अस्मिन् गद्यभागे उच्यते। उपरच्छेदम् कर्तुम् इति प्रयतन्ते।
नमस्सर्वेभ्यः। एषः मृगाङ्कः अपि मृगया आयासपरिश्रान्तिविश्रान्त्यै इति विश्रान्त्यै ससंभ्रमम् निज नमन् नमत् जनपरिवृते मत् जनगृहाभिमुखे
अभिमुखे
दशमुखे तत्रस्य विचित्रतर शतकुम्भ स्तम्भाग्र प्रत्यग्र प्रत्युक्त स्फटिक शिलाशालभञ्जिका पुञ्जकरतलकलित उपलमयकलशमुखात् अच्छाच्छाम् अविच्छिन्न धारा अम्बुधाराम् निजकराभिमर्षात् आपादयन् तस्य प्रसादपिशुनानाम् शुनातीर चिरकाङ्क्षितानाम् विंशतिविधवीक्षणानाम् क्षणमात्रम् पात्रम् भवति।
एषः मृगाङ्कः अपि मृगया आयास परिश्रान्ति विश्रान्त्यै ससंभ्रमम् नमत् जन परिवृते मज्जन गृह अभिमुखे दशमुखे तत्रत्य विचित्रतर शातकुम्भ स्तम्भ अग्र स्तम्भाग्र प्रत्यग्र प्रत्युक्त स्फटिक शिला शालभञ्जिका पुञ्ज करतल कलित निज उपलमय मुखात् अच्छ अच्छाम् अविच्छिन्नधाराम् अम्बुधाराम् निजकर अभिमर्षात् निजकराभिमर्षात् आपादयन् तस्य आपादयम् तस्य सन्धि सत्त्वसन्धि नकारान्तम् पदम् यत्र भवति तत्र छव् छ ठ थ चट च ठ तथ इत्येतेषु वर्णेषु परेषु सकारः भवति पूर्वम् अनुस्वारः। सो द नकार इस् रीप्लेस् बै अनुस्वार एण्ड् सकार विच् वि काल् सत्त्वसन्धि। आपादयम् तस्य प्रसाद पिशुनानाम् शुनातीर चिर काङ्क्षितानाम् विंशति विध वीक्षणानाम् क्षणमात्रम् पात्रम् भवति इति कथ्यम्। अर्थम् आदौ वर्णयामि, अनन्तरम् प्रतिपदार्थम् पश्यामः। कथयति रावणः मृगयार्थम् गतः, मृगया हण्टिङ्ग् गत्वा प्रत्यागच्छति, श्रान्तः प्रत्यागच्छति, प्रत्यागत्य स्नातुम् स्वस्य स्नानगृहम् गच्छति मज्जनगृहाभिमुखे दशमुखे। सः यदा तस्य स्नानगृहम् गच्छति, तस्य स्नानगृहम् कथमस्ति इत्यस्य वर्णनमस्ति। तत्र स्वर्णस्तम्भाः सन्ति, सो हिस् बात्रूम् आर् द बातिङ्ग् हौस्, सो इट्स् एक्स्ट्राडिनरि मोडर्न् डिस्क्रिप्शन्। सो देर् इस् अ शातकुम्भ स्तम्भ, सो इट् इस् स्टडेड् वित् गोल्डन् पिल्लर्स्, तत्र स्वर्णस्तम्भाः सन्ति, स्वर्णस्तम्भानाम् उपरि प्रत्यग्र प्रत्युक्त स्फटिकशिला शालभञ्जिका कुञ्ज. सो दोस् गोल्डन् पिल्लर्स् दे आर् स्पेशलि फिटेड् वित् शालभञ्जिका. शालभञ्जिका इस् द नेम् फार् दीस् नो द डाल्स् इन् आल् द डिफरेण्ट् टेम्पल्स् वाट् यु फैण्ड् द vigraha of beautiful women or damsels, that is called the shalabhandika. Okay. So those golden pillars, they have been freshly seated with these figures of beautiful women, which have been made from the phatika shila. So those damsels, the figures of those damsels, they are carrying kalasha, a kumbha, pot, water pots in their hands. Those water pots, they are made of the Chandrakanta Shila. So Chandrakantam iti Shila bhavati, tasya visheshaha iti. Yada Chandrasya kiranaha tasyaha shilayaha upari patanti, tada jalam sravati. So Chandrakanta is a mani or a shila. This is very popular in Sanskrit literature. So it is supposed to ooze water, clear, fresh, very good quality water when the rays of the moon fall on it. So there are many such figures studded on golden pillars in Ravana's bathroom. So they are holding pots made of this Chandrakanta Shila. So yada Ravanaha Shrantaha स्नातुं मज्जनगृहं गच्छति तदा चन्द्रः किं करोति, कथञ्चित् रावणस्य प्रसादं सम्पादयितुं वेगेन तत्र गत्वा स्वस्य किरणान् प्रसारयति, येन तेभ्यः कलशेभ्यः स्वच्छं जलं निर्याति. सो बिकास् चन्द्र इस् फोकसिङ्ग् आल् हिस् किरणस् आन् दोस् पाट्स् मेड् आफ् चन्द्रकान्तशिला, सो रावण गेट्स् फ्रेश् water for his bathing and he is pleased. Ravanasya prasada vishunana vimshati vidha vikshanana. So his 20 eyes, so they emit glances of happiness that Chandra has served him well. So his glances shunatira chirakankshitana, for which even Indra is waiting for a long time but has not been able to get such pleased glances from Ravana. So Chandra manages to get that vikshana shanamatram for one moment by anticipating Ravana's need for water and giving him fresh water. So Chandra gets his pleased glance for one moment. That is, for that one moment he is in waiting. And even Indra is in waiting but is not able to get. So that shows the thing of Ravana. Sthulaha arthaha avagataha syat. Idanim pratipadartham pashyamaha. Eshaha ayam mridankaha chandraha. Tatratya sarve devaha agataha kila mahavishnum drashtum. Ekaikam darshayanti. Purvam amu antakamantarena iti yamam darshitavantaha. इदानीं चन्द्रम् अग्रे आनयन्ति. अत्र पश्यतु अस्य चन्द्रस्य का स्थितिः इति. एषः मृगाङ्कः, मृगाङ्कः नाम चन्द्रः, मृगस्य अङ्कः. हि हेस् द सैन् आफ् द डीर्. सो एषः मृगाङ्कः अपि, सो ईवन् चन्द्र. सो वाट् देन् टु से आफ् नार्मल् मार्टल्स्. वि आर् स्पीकिङ्ग् आफ् द हैयेस्ट् अमोङ्ग् द गाड्स्. So when they are having such durdasha, anyesham kavadatihi, it is dhvani. Eshaha mridankaha api, mridayayata parishranti vishranti. Mridaya nama akshetaha, hunting. Mridayaya yaha ayasaha nama shramaha. So the fatigue due to hunting. तेन श्रमेण या परिश्रान्तिः नाम छेदातिरेकः. सो ही इस् एक्स्ट्रीम्ली टायर्ड्. तस्याः विश्रान्त्यै विश्रमार्थम् So to relieve the tiredness caused by the exertion of hunting. Ityarthah. Mrigayayasa parishranti vishrantyai. Sasambhamam. Sattvaram. So yadasaha agachati. Sarvepi sevakaha svaraya ahamahamikaya agachanti. Aham kashchit vanchamanayati kashchit tasya vastrani svikaroti kashchit tasya kiritam svikaroti evam. Sasambhamam. Sattvaram. Namajjana parivrute. Namadvihi. Vandamanaihi. Janaihi. Paricharaihi. Parivrute. Pariveshtite. So just as Ravana is coming in, so he is surrounded by hordes of people who are trying to take care of his different needs. So sasambhamam namajjana parivrute, namantaha janaha, namajjanaha, taihi parivrute, majjana grihabhi mukhe, so dashamukhe, sati saptami prayogaha, dashamukhe ravane, majjana grihabhi mukhe sati, majjanam nama snanam. So snana mandapam prati yadataha gachati. So even as he is walking towards the bathing house. Majjana grihabhi mukhe sati. Tatratya ekameva padam. Tatratya vichitratara shatakumbha sambhagra pratyagra pratyastra skatikashila shalabhandika punja karatalakalita nijopala maya halasha mukha. Tatratyaha, tatra nama tasmin snanagrihe santi, snanagrihasthaha, ke vichitra taraha, atyanta ashcharya karaha, vichitram nama, chitram ashcharyam ityarthaha, so ashcharyam utpadayanti, ke shatakumha sambhagreshu, so shatakumham nama hiranyam svaranam, so hiranmaya sambhanam, upari bhage shatakumbha sambhagra pratyagra pratyukta pratyagram pratyagram nama navinam nutanam so freshly or newly installed so they are not rusted old things so freshly installed pratyagra pratyukta nama pratishthapitam nutanataya pratishthapitah kaha Patikashila shalabhandika punjaha. Patikashila, patikamanina nirmitana shalabhandikana sundara sri vigrahana punjaha. Punjaha nama samuhaha. So on each golden pillar there is one figurine of a damsel, of a beautiful damsel. So all these are freshly made. So tatratya vichitratara shatakumbha stambha agra pratyagra pratyukta phatikashila shalabhandika punja. So the group of damsels or the figurines which are freshly installed on golden pillars in his bathroom. Karatala kalita tesham vigrahanan karataleshu hatteshu kalitaha grihitaha ke grihitaha nijopalamaya kalashaha nija one's own ityarthaha. So here it refers to the mridanka. So nija upala is chandrakanta shila, that is the chandra shila. So nija is referring to his own, which is chandra's own shila. So upalam nama shila ityarthaha. So chandrakanta shila nirmitaha kalashaha ghataha tesham mukhar mukharupa vivarat. So the opening or the mouths of those pots ityarthah. Clear? So mukha is the mouth of the kalasha, the pot which is nija upalamaya, which is made of the chandra shila, chandrakanta shila. So where are these pots? Kalita, they are held in the karatala, in the hands of punja, the group of shalabhandika, the beautiful damsels, the figures. So beautiful damsels, sphatikashila, which are themselves made from the sphatikashila, the crystals. So there is gold, crystal and Chandrakanta. Each one of them is more valuable than the other. That is the intention. So pillars of gold, solid gold. So on which there are figures made from crystal. Patika is also a very rare thing which is very valuable. On it you have the Chandrakanta Shila, which is very very rare to find Chandrakanta Shila. So he has so much of Chandrakanta Shila that he has made one pot for each of those figurines. So each of them is more valuable. So Patika Shila Shalapantika, which has been Pratyagra Pratyukta, newly installed Samhagra on the tip top of the pillar, Shatakumbha, which are made from gold, Vichitra Tara, and all this, the entire arrangement is extremely astonishing. So Tattasya Yat Putra Snanagrihe Sthitaha Ityarthaha. Clear? So Tattasya Vichitra Tara Shatakumbha Samhagra Pratyagra Pratyukta Sphatika Shila Shalabhandika Punja Karatala Kalita Nija Upalamaya Kalasha Mukha. So from these pots, from the openings of the pots made of Chandrakanta Shila, Achchacham Avichinnadharam Ambudharam Nijakara Vimarshad Apadayan. So Chandraha Kinkaroti Achchacham Acham Nama Atyantam Shuddham Nirbalam Ityartha Swacham Iti Vadamakila Su Acham Swacham. So Swacha is from Accha, it is very pure, pristine. So Accha Accha, so Dvitvam Atyantam Shuddham Ityartha Accha Accham Atyanta Shuddham Atyanta Nirmalam Avichinnadharam Akhanda Pravaham. So it is not just, I mean, he is constantly focusing so that there is a continuous flow of water. Avichinnadharam, Akhanda Pravaham, Ambudharam, Ambu Nama Jalam, Jaladharam, Nijakara Vimarshat. So again, Nija, Swasya Nama Chandrasya, Karanam, Kiranam, Abhimarshat, Sparshat. So what is Chandra's role? He is generating a continuous flow of water for the use of Ravana. So Nijakara Vimarshat Apadayan Utpadayan Tesho Chandrakanta Shila Nirmita Kalashesho Swasya Kiranaihi Chandraha Atyanta Shuddham Akhandam Jaladharam Utpadayati Ravanasya Snanartham Nijakara Vimarshat Apadayan Tasya Ravanasya Prasada Pishunanam Anugraha Suchakanam Shunasira Chirakankshitanam Shunasirena Nama Devarajena Indrena Chiram Mahohu Kalas Kankshitanam Abhilashitanam Natu Praptanam. So Indra has been waiting for a very long time to earn one such glance from Ravana, but he has not been able to. So Chandra manages to do it. Shunatira Chirakankshitanam Vimshati Vidha Vikshananam. So Vimshati Sankhyakanam Katakshanam Hibrashaha Katakshaha Prasada Pishunaha. So Prasada Pishunanam Vikshananam Kshanamatram Ulpakalam Patram Yogyaha Bhavati. So he deserves or he gets those glances for one moment. So for that he has to continuously follow Ravana's movements, anticipate when he requires it and get it done. Avagatam kim tatparyam. Ravanaha mrigayam samapya shrantasan nivrtya snanagraham prati gacchati. Tasya snanagrihe Svarna Sambhaha Santi Yeshu Nutanataya Pratishthapitaha Phatika Nirmitaha Sundara Sri Vigrahaha Vidyante Tatam Srinam Sasteshu Chandrakanta Shila Nirmitaha Ghataha Santi Ravanasya Snanartham Chandraha Swasya Kiranaihi Tebhyaha Ghatebhyaha Nirmala Jalasya Satata Pravaham Kalpayati. Tada prasannaha ravanaha क्षणमात्रं स्वस्य विंशत्या नेत्रैः चन्द्रं वीक्षते चेत् चन्द्रस्य कृतकृत्य भावना उत्पद्यते. सो हि फील्स् एक्स्ट्रीम्ली ग्रेटिफैड् वै यतो हि देवराजः इन्द्रः अपि बहोः कालात् रावणस्य अनुग्रहकटाक्षं काङ्क्षमाणः प्राप्तुं न शक्तवान् अस्ति. अहं कथञ्चित् किञ्चित् कालं वा प्राप्तवान् किल इति चन्द्रः अत्यन्तं सन्तुष्टः भवति इति भावार्थः. अवगतम्? So I hope now each word should be clear now. Eshaha mridantaha api. So this Chandra, mridaya ayata parishranti vishranti. So for relieving the exertion caused by the exertions of hunting. So dashamukhe. So when Ravana, vajjanagraha abhimukhe, is going towards his bath house, sasambhramam namajjale parivrate. So parivrata, surrounded by his servants who are bowing down and who are collecting around him chaitini. So then satratya, satra nama snanagrahe. So in the bath house, vichitratara, so extremely astonishing, shatapumha stambhagra, so golden pillars, tesham agra, so on the top of those golden pillars, pratyagra pratyukta, so pratyagra newly or freshly pratyukta installed, patikashina shalabhanjika punja, so group of figurines of beautiful damsels which are made from the patikashila, from the crystal. So tesham karatala kalita, so in their hands they are holding nija upalamaya kalasha mukhat. So kalasha is missing here. So kalasha, so pots which are made of the chandrashila, the chandrakanta shila. So from the openings of those pots, accha accham, so extremely pure, avichinna dharam, continuous flow of water, ambudhara, a continuous stream of water, nija karabhimarshad apadayan. So generating this continuous stream of pure water, how? Through the touch of his rays. So the Chandrakanta Shila, you will not have opening. It has to flow from Chandra. So using the power of his kiranas, of his rays, he generates this continuous flow of pure water. Then, tasya ravanasya, prasad pishunanam vimshati vidha vikshananam patram bhavati. So just for a moment, kshanamatram, he gets the glances, prasad pishunanam, pleased glances from the 20 eyes of Ravana. So for which shunatira chirakanchitanam, even Indra has been waiting for a long time.
नमस्ते भगिनि. श्रूयते वा?
श्रूयते.
शुनातीरकाङ्क्षितानाम् इति अस्ति किल, किमर्थं इन्द्र रावणस्य कटाक्षम् अपेक्षते? सः किमर्थं
इन्द्रादयः दिक्पालकाः बहुकालं रावणेन बन्दीकृताः इति कथा अस्ति. अतः स्वस्य सः रावणः अमरावतीम् आक्रम्य सर्वान् दिक्पालकान् अपि स्वस्य कारागृहे स्थापितवान्. बहुकालानन्तरम् अस्तु गच्छतु इति इन्द्रं त्यक्तवान् इति कथा अस्ति. तदर्थं सः कदा वा एषः मां मुञ्चति इति, तस्य प्रसादार्थम् इन्द्रः अपि प्रतीक्षमाणः अस्ति.
धन्यवादः.
इदानीं व्याकरणांशान् पश्यामः. मृगाङ्कः மிருகஹ அங்கஹ யஸ்ய சஹ. சோ அங்கஹ நாம சிங்கம், சோ தி சிம்பல் மிருகஹ இஸ் எ டீர். சோ அப்ஜோ தெய்வாத்ருக ஸ்தோமோ க்ளௌர் மிருகாங்க கலாநிதிஹி இதி அமரஹ. சோ மிருகாங்கஹ இத்யுக்தே சந்திரஹ, ஹிமாம்சு சந்திரமாஸ் சந்திரஹ இந்திர குமுத பாந்தவஹ. சோ சசாங்கஹ இத்யப்பி அஸ்தி மிருகாங்கஹ இத்யப்பி அஸ்தி. சோ சம்டைம்ஸ் the kala in chandra, it is viewed in various aspects, you know. So there is actually a beautiful shloka on it. Ankam ke pishashankire jalanidhe pankam pareme nire sarangam chati chitta sanjajadire bhuchayam aichhantare indau yad dalitendra neela shakala shyamandari drishyate பங்கம் பரே மே நிவே. சம் பீப்பிள் சே இட் இஸ் த பங்க, பங்க இஸ் த ஸ்வாம்ப், த மட். சோ chandra came up from the ocean, abdha, so samudra jataha ityeva asti. So jalanidhehe pankam, so when he was born from the ocean, he has retained some of that mud from the ocean. Jalanidhehe pankam paremenire sarangam katichitta sanjagadire, some people use it as a deer. Guchhaya maichan pare, so others look at it as a shadow of the earth, bhuchayam. But what do I think? Indau yad dalitendra neela shakala shyamam dari drishyate. So that black spot which is seen in the moon, tat sandram nishipita mandhatamasam kukshistham atakshmahe. So we look at it as the darkness which Chandra has eaten at night, because he comes at night, he eats up the darkness, and that darkness is seen in his udara as that dark spot. That is a kavi kalpana. So Chandra is known both as the Shashanka and Mridanka. Ubhayamapi asti. So Mridanka nama Chandraha. Mridaya mridyante pashavaha apya mridyante anvishyante ityarthaha. சோ மிருக அன்வேஷணே இது தாத்தோ நிதந்தாத் ஷ பிரத்யயஹ மிருகயா இது ஆகாராந்த ஸ்திரீலிங்கஹ. சோ ஆச்சோதனம் மிருகவ்யம் ஸ்யாத் ஆக்ஷேதோ மிருகயா ஸ்திரியாம் இத்யமரஹ. சோ ஆச்சோதனம் மிருகவ்யம் ஆக்ஷேதஹ மிருகயா, ஆல் தீஸ் ஆர் சினோனிம்ஸ் ஃபார் ஹண்டிங். மிருகயா ஆயாச பரிஷ்ராந்தி விஷ்ராந்தியை. So, vi upasargaha shramu tapati khedeta iti dhatuhu ktin pratyayaha vishrantihi ikaranta sreelingaha chaturthi vibhaktau ekavachanam satambhramum sambhramena saha satambhramum avyayi bhava samasaha namajjana parihrate namantaha janaha namajjanaha namajjanaihi parihrataha நமஜன பரிவிரதஹ தஸ்மின். சோ நமந்தஹ ஜனாஹ இதி கர்மதாரயஹ நமஜனைஹி பரிவிரதஹ இதி த்ருதீயா தத்புருஷஹ தஸ்மின். தசமுகே இத்யத்ர விசேஷணம் ததி சப்தமி பிரயோகஹ. சாதகும்பம் ஸ்வர்ணம் சுவர்ணம் கனகம் இத்யாதி பஹூனி பரியாய பதானி சந்தி தபனீயம் சாதகும்பம். சோ சாதகும்ப மீன்ஸ் ஸ்வர்ண. So it is a rather rare synonym of gold. Pratyagra Pratyagrobhi navo navyo navino nutano navaha. So navaha navinaha nutanaha navyaha abhinavaha pratyagra. So pratyagra is again a rare synonym of new. Shalabhandika ஷாலேன விருக்ஷேன பஜ்யதே நிர்மீயதே இதி ஷாலபந்திகா. சோ ஒரிஜினலி தேவர் வுடன் ஃபிகரின்ஸ், பட் லேட்டர் ஆன் வி சி தேவர் மேட் ஃப்ரம் ஸ்டோன், ஃப்ரம் வேரியஸ் ஜுவல்ஸ், here it is Phatika Shila Shala Bhanjika. So Shala means a tree. Vruksho Mahi Rupa Shakhi Vitapi Padapattaruhu Anokahaha Kutaha Shalaha. So Shala means a tree. So originally such figurines were made from wood, but later any figurine of a usually a woman, beautiful woman, was called Shala Bhantika. Avichinna Dhara. Avichinna Dhara Yasyaha Sa. Avichinna Dhara. Sahugrihi Samasaha Tam. Ambudhara. Ambunam Dhara. Ambudhara. Ambholna Soya Paniya Nirakshira Ambushambaram. Iti Amarakosha. So ambuni ambuni ukarantaha napumsaka linga shabdaha, like madhumadhuni madhuni ambu ambuni ambuni. Nijakara abhimarshat mrisha amarshane iti sudadiganasya dhatuhu amarshanam nama sparshaha nijakaranam karanam nama kirananam sparshat khai pratyaya apadayan a upasargah padagatau dhatuh nidantat shatra pratyaya sakaranta pullingah prathama vibhaktau ekavachanam prasada pishunana prasadasya pishunah tesham. So pishuna shabdasya arthadvayam asti pishunau khala suchakau. So pishunaha yaha anyesham vishaye agasya vadati. So somebody who a tattletale is also called a pishuna, who goes and complains about somebody to others, who tattles is called pishuna. Also suchaka, an indicator ityapi arthah asti. Atra tu suchakah ityarthah. Vimshati vidha vikshanana. Vimshati hi vidhaha esham tani, vimshati vidhani. So of 20 kinds or 20 in number. So vimshati vidhani vikshanani tesham. Kshanamatram, kshanamatram, kshanamatram. Matram kathnye avadharane. So matra shabda is used in two senses. So one is complete, kathnyam ityarthahasti. Or avadharana, only. Atratu kshanam matram, only for a second. Ityarthaha. Patram. Yogya bhajana yoho patram. So again, patra shabdasya arthadvayam. Yogyaha deserving iti ekaha arthaha. Bhajanam nama vessel. Patrani. Patram prakshalayati. So you have the bhajanam nama vessel ityapi arthaha. Atratu yogyaha ityarthaha. Kshanamatram patram bhavati. So gatya bhage sarvesham padanam vyakaranam shahanochyate. So whatever is important I have covered. If you have any doubts about some other words, you can ask. So esha mrgan kopi mrgayayata parishranti vishrantyai sasambhamam namajjana parivrate majjana graha abhimukhe dashamukhe tatratya vichittatara shatakumbha sambhadra pratyagra pratyupta sphatikashila shalabhandika punja karatala kalita nijopalamaya kalashamukhad achchachcha mavichinna dharam abhudharam nitakaravimarshad apadayam satya prasadati shunana vimshati vidha shunatira tirakanchitana vimshati vidha vikshanana kshanamatram patram bhavati. Tadregachamaha. So agre suryaha chandraha vayuhu vayohu kagatihi iti varnayati tena pulasya nandanena sankrandana nandana svamandeyodhyana manitasya mandara pramukhasya vrindara katarubindasya vandikrata surasundari nayanendi varatvandvacha kararavinda kalita kanakakalashacha mandoshnam chandamanair अम्बुभिर्जम्बालितालवालस्य पतेलिमानामपि कुसुमानाम् पतनभयमाशङ्कमानाः पवमानाः परिस्पन्दितुमपि प्रभवो न भवन्ति. रावणात् भीताः मरुतः पवमानाः मरुतः परिस्पन्दितुम् अपि प्रभवो न भवन्ति. सो विण्ड् इस् नाट् एबल् टु मूव् बिकास् आफ् फियर् फ्रम् रावण. इत्यर्थः पदच्छेदः कोऽपि प्रयतते. शारदा भगिनि
नन्दनेन नन्दनात् मन्दिर उद्यानम् आनीतस्य मन्दारप्रमुखस्य वृन्दारक तरु वृन्दस्य वन्दीकृत सुरसुन्दरी नयन इन्दीवर वृन्दात् करारविन्द कलित कनक कलशाः मन्दोष्णम् स्यन्दमानैः अम्बुभिः जम्बालित आलवालस्य पचेलिमानाम् अपि कुसुमानाम् पतनभयम् आशङ्कमानाः अवमानाः परिस्पन्दितुम् अपि प्रभवः न भवन्ति.
सम्यक्. तेन कुलस्य नन्दनेन सङ्क्रन्दन नन्दनात् स्वमन्दिर उद्यानम् आनीतस्य मन्दार प्रमुखस्य वृन्दारक तरु वृन्दस्य वन्दीकृत सुर सुन्दरी नयन इन्दीवर द्वन्द्वात् च कर अरविन्द कलित कनक कलशात् च मन्द उष्णम् स्यन्दमानैः अम्बुभिः जम्बालित आलवालस्य पचेलिमानाम् अपि कुसुमानाम् पतन भयम् आशङ्कमानाः पवमानाः परिस्पन्दितुम् अपि प्रभवः न भवन्ति. श्लोकः अर्थः पुनरपि गद्यस्य अपाकतः अर्थम् आदौ उक्त्वा ततः प्रतिपदार्थम् वदामि. सो रावणः सङ्क्रन्दननन्दनात् इन्द्रस्य नन्दनवनात् स्वस्य उद्यानम् प्रति आनीतवान्. किम् आनीतवान्? वृन्दारक तरुवृन्द. सो देववृक्षाणाम् समूहम् आनीतवान्. देवलोके ये ये वृक्षाः कल्पवृक्षः पारिजातः मन्दारः इत्यादि वृक्षाः तान् सर्वान् वृक्षान् आनीय स्वस्य उद्याने स्थापितवान्. अपि च किं कृतवान्? तेषां वृक्षाणां पालनार्थं जलसेचनादि कार्यं कर्तुं बन्दीकृत सुरसुन्दरी देवकन्याः एव बन्दीकृत्य आनीतवान्. सो हि हस् क्याप्चर्ड् द सेलेस्टियल् विमेन् अण्ड् ब्राट् देम् to Lanka to take care of the trees. So those trees have also been taken from Indra's Nandanavan. So he has brought all the trees from there, and to water those trees also he has captured and brought women from Devaloka. Okay, so they are watering the trees. So Tesham Kalashat, so from the pots which have water which is cold, so water, the general water used for watering the trees, but it is mixed with their tears. Okay, nayane nivara dvandva, so tears falling from their eyes. So tears are hot and the water in their pots is cold. So mixed together it is a warm water. Mandoshnam chandamanaihi ambupihi. So the water falling at the roots of those trees, they are mandoshnam. So warm, because the cold water is mixed with the hot water of their tears. So jambalita alavala. Yes. So these trees, the base of those trees, the alavala. Alavala is the water this thing which is made. If you see huge trees, especially the coconut trees. So at their base, a small round, small pit kind of a thing is made, for watering. That which holds water. Okay, so that is called alavala, which has become jambalika. So which is a funky system. So swampy because of water, and that water is not cold, it is warm. So now, this is just a description. The key point is, these trees have flowers, right? So Parijata, Mandara, other flowers. So flowers, when they themselves, they become, they ripen and then they fall. But the winds, they are afraid that if a flower falls from these trees, Ravana may get angry. So Patelimanam api kusumanam patanapayam ashankamana. So even a light breeze may cause the normal flowers will not fall. So but the flowers which are very ripe, which have become which have lost their freshness, they might fall. So afraid of the falling of even such flowers, pavamanaha padispanditam api prabhavaha na bhavanti. So the wind is afraid to even move, afraid that he or they, it is given in Bahuvachana, the maruts are multiple in number. So they are afraid to move because they might be blamed for the falling of those flowers. Okay, that is the fear which Ravana inspires in them. So tena Ravanena kidrashaha saha pulasya nandanena pulasyasya vishravasaha putrena sankrandana nandanat. Sankrandanaha indraha tasya nandanat. Nandanam iti indrasya udyanasya nama. So nandanavanat svamandirodhyanam svasya ravanasya mandiram namagriham tatrasyam udyanam aramaha. So the garden in his house. Sat prati anitasya prapitasya. So he has shifted all the trees from Nandanavana to his own garden. Mandara pramukhasya vrindaraka taru vrindasya. Mandara pramukhaha. So Mandara and others. So the Amarakosha lists five trees. Panchaite devataravaha. Mandaraha, Parijatakaha, Santanaha, Kalpavrikshaha, Harichandanam. So these five are the devatarus. So trees found only in heaven. So Mandara pramukhasya vrindaraka taruvrindasya. Vrindarakanam devanam taravaha vrikshaha tesham samuhaha. So the group of divine trees. Vandikrita surasundari nayanendi varasvandvacha. Vandikritaha, so captured. Balena niruddhaha yaha surasundaryaha devakanyaha tasam nayanendi varasvandvacha. So Indivaram. Indivaram is a blue lotus or a lily. Okay, it's a flower, a dark flower. So the lotus is red in color. The Indivara is blackish in color. So that is why the Nayana is often compared to the Indivara. So Netra Utpala Yugalat. Kararavinda Kalita Kanaka Kalashacha. So from their eyes and from the pot. So water is flowing from their eyes and from the pot. So karara vindeshu tesham hastapadmeshu kalitaha grihitaha yaha kanaka kalashaha swarna kumbhaha tasmat. So vandikritaha deva kanyaha उद्याने जलसेचनकार्ये नियुक्ताः स्वतेषां नेत्रेभ्यः तेषां हस्ते गृहीतेभ्यः स्वर्णकुम्भेभ्यः च जलं पतति. तत् कथं भवति? मन्दोष्णं नाम ईषदुष्णं. कलशस्य उदकं शीतं, बाष्पोदकं च उष्णम्. उभयोः मिश्रणेन मन्दोष्णं भवति. मन्दोष्णं स्यन्दमानैः प्रसवद्भिः. So they are oozing out warm water, which is oozing out. Ambu bhihi, ambu nama jalam, puravati drishtam. Jambalita alavalasya, jambalitam nama pankikritam. So it is swamped by such water, warm water. Jambalitani alavalani, jaladhara moolavalayani. So at the base, the gap which holds water is called alavala. So mandaradinam devavrikshanam mulani jalasetane niyuktanam devasundarinam vashpajalena kalashodakena cha sammishritena pankikritani ityarthah. So tasya vrindaraka tarunandasya pachelimanam api kusumanam. So pachelima, patana unmukha, they are almost falling. So the flowers, they are already on the verge of falling down. So patelimanam api kusumanam pushpanam patana bhayam ashankamanaha. So adhapatam ashankamanaha atankitaha. So they are scared of making them fall, not fresh flowers. So they are scared of making fall even those old flowers which might fall by themselves any time. So afraid that that act may be blamed on themselves. So patanabhayam ashankamanaha pavamanaha marutaha parispanditum api kinchit chalitum api prabhavah samarthah na bhavanti na vidyante. So you can see it was just one sentence in Valmiki. Nainam suryah pratapati parshve vati na marutah. It says nainam suryah pratapati, sun will not heat him. Parshve vati na marutah. So the air or the wind will not blow by his side. So using that nucleus, so Bhoja has developed it into such a beautiful description. Madhumaya phanitinam margadarshi maharshi valmikina pradarshitaha eva margaha. So tasmin marge gatva Bhoja sriyam kavitvam pradarshayati. So kim tatparyam, ravanaha indram parajitya tasya nandanavanat mandaradin devavrikshan apahatya svasya grihasya udyane sthapitavan. Kincha surasundarihi bandikritya tesham vrikshanam jalasetana karye niyojitavan. So jalasetana kale sheetena kalashodakena saha tasam vashpodakasya mishranena kadushnam jalam vrikshanam mule patati yena tesham alavalani pankikritani. So all this description is just to show the dusthiti, the fate which has befallen upon the gods Indra, his Nandanavana, the women of Devaloka. So all of them are in trouble, are being harassed by Ravana. So tadvrikshanam supakvanam api pushpanam patanam ravanasya krodham utpadayet itibhiya marutah chalitumapi asamarthah kimuta yathecham vihartum. So the general perception is it is not possible to hold wind. It will go as it pleases where it wants. But in this case, they are afraid to even move, forget moving free. So kulasya nandanena, kulasya nandanah tena sankrandana nandanat. Sankrandanasya nandanam tasmat. Sankrandano duschavanah turashat meghavahanah. इत्यादीनि इन्द्रस्य पर्यायपदानि. वृन्दारकतनुवृन्दस्य वृन्दारकाणां तरवः वृन्दारकतरवः वृन्दारकतरूणां वृन्दः तस्य प्रात वृन्दारकतरुवृन्दस्य वृन्दारका दैवतानि पुंसि वा देवतास्त्रियाम् इत्यमरकोशे वृन्दारकाः नाम देवाः. मन्दीकृतसुरसुन्दरी नयनेन्दीवरद्वन्द्वाश्च सुराणां सुन्दर्यः सुरसुन्दर्यः मन्दीकृताः सुरसुन्दर्यः नयनम् इन्दीवरम् इव नयनेन्दीवरम् नयनेन्दीवरस्य द्वन्द्वम् सो पेर् आफ् नयनेन्दीवर बन्दीकृतसुरसुन्दरीणाम् नयनेन्दीवरद्वन्द्वम् तस्मात् नयनम् लोचनम् नयनम् नेत्रम् ईक्षणम् चक्षुरक्षिणी इन्दीवरम् नीलाम्बुजन्म च इन्दीवरम् च अमराग इज डिफरेंट सब टाइप्स ऑफ फ्लावर्स देयर इज उत्पलम देयर इज इंदीवरम सो देयर इज अ स्लाइट डिफरेंस बिटवीन देम. मंदोष्णम कोष्णम सवोष्णम मंदोष्णम कदुष्णम त्रिश तद्वति सो ऑल दीज वर्ड्स आर सिनोनिम्स फॉर ल्यूकवार्म इति कथ्यते. कोष्णम सवोष्णम मंदोष्णम कदुष्णम सो स्लाइटली वार्म. स्यन्दमानैः स्यन्दु प्रस्रवणे इति धातुः शणच् प्रत्ययः. अम्बुभिः सो उकारान्तः नपुंसकलिङ्गः तृतीया विभक्तौ बहुवचनम् अम्भोर्णः तोय पानीय नीर क्षीर अम्बु शम्बरम् अम्भः अर्णः तोयम् पानीयम् नीरम् क्षीरम् सो क्षीरम् इस् आल्सो अ सिनोनिम् आफ् वाटर् अम्बु शम्बरम्. जम्बालः विषद्वरस्तु जम्बालः पङ्कोस्त्री शादकर्दमौ शादः कर्दमः पङ्कः जम्बालः विषद्वरः सो आल् दीस् आर् वर्ड्स् टु इण्डिकेट् पङ्क मिक्स्चर् आफ् मड् एण्ड् वाटर्. पचेलिमानाम् सो पचेलिम इति बहु विशिष्टशब्दः. केलिमर् इति प्रत्ययः स्वयमेव पच्यन्ते सो इट् हेस् बिकम् एक्स्ट्रीम्ली रैट् बै इट्सेल्फ सो इट् विल् फाल् एनी टैम् बै इट्सेल्फ इत्यर्थः. पच् धातोः केलिमर् इति प्रत्ययः कर्मकर्तरि केलिमर् वाच्यः इति वार्तिकम् दट्स् अ वेरि पाप्युलर् वेरि स्पेशल् यूसेज् सो पचेलिमाः माषाः so that which can cook itself ityartha so which has soaked very well in water so that cooking is very easy. Bhidelimaha saralaha so chain which breaks by itself so it has become so old and brittle that it is ready to break by itself with very little external effort. So similarly here pachelimaha kusumaha those flowers which are ready to fall without any external effort. So even if such old flowers fall, Ravana might get angry. Iti tatra dhvani. So pachelimanam kusumanam kriyat sumanata pushpam prasunam kusumam sumam sumanataha iti strilinge pushpam prasunam kusumam sumam ityadi napumsakalinge padani. Pavamanaha नभस्वद्वात पवन पवमान प्रभञ्जनाः इत्यादि वायोः पर्यायपदानि. परिस्पन्दितुम् परि उपसर्गः पदि किञ्चित् चलने इत्येव धातुः. स्पन्दन इस् नाट् टु मूव् अराउण्ड् अ लाट् इट् इस् जस्ट् टु वैब्रेट् आर् मूव् स्लैट्लि सो तत्रापि समर्थाः न भवन्ति. परिस्पन्दितुम् चलितुम् समर्थाः इति न स्पन्दितुम् इवन् लैट् मूवमेण्ट् तस्यापि समर्थाः न भवन्ति. सो तेन पुलस्य नन्दनेन सङ्क्रन्दननन्दनात् स्वमन्दिरोद्यानमानीतस्य मन्दारप्रमुखस्य वृन्दारकतरुवृन्दस्य वन्दीकृत सुरसुन्दरी नयनेन्दीवरद्वन्द्वाच्च करारविन्द कलित कनककलशाच्च மந்தோஷ்ணம் சந்தமானைரம்புபிஹ ஜம்பாலிதாலவாலஸ்ய பசேலிமானாமபி குசுமானாம் பதனபயம் ஆசங்கமானாஹ பவமானாஹ பரிஸ்பந்திதுமபி பிரபவோ நபவந்தி. கத்யத்வயம் திருஷ்டம் ஏஷ மிருகாங்கோபி இத்யத்ர சந்திரஸ்ய பரிஸ்தி திருஷ்டா. ராவணஸ்ய ஸ்நானகாலே சந்திர சுத்தம் ஜலம் உத்பாத்ய க்ஷணமாத்திரம் தஸ்ய பிரசாதம் பிராப்தும் பிரயத்தே. தேனபுலஸ்ய நந்தனேன இத்யத்ர தோ ராவணஸ்ய உத்யான விருக்ஷாணாம் புஷ்பாணாம் பதனம் ஆபூரிதி தியா மருதஹ சலிதுமபி அசமர்த்தஹ. சூரியஹ சந்திரஹ வாயுஹ ஏதேஷாம் த்ரயாணாம் துர்கதிஹ வர்ணிதா அக்ரே அக்னேஹ கா ஸ்திதிஹ இத்யுச்யதே. அக்ரிமவர்கே பஷ்யாமஹ. So I have not been able to upload even the last class. So both these classes by tomorrow or the after I'll upload. Any questions? லட்சுமீம் தனோது நிதராமிதரானபேட்சமங்கிரிவயம் நிகமசாகிஷிகா பிரவாலம் ஹைரம்பமம் புருஹடம்பரசௌர்யநிக்ரம் விக்னாத்விபேதசததாரதுரந்தரம் மகா.